ॐ गणेशाय नमः। ॐ वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वती परमेश्वरौ। ॐ शान्ति शान्ति शान्तिः। श्रीगुरुभ्यो नमः। हरिः ॐ।
धन्यवादः भगिनी।
धन्यवादः।
सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र कर्मणि भावे प्रयोगः लोट् लकारः इति। हा, तेषां तत्र कीदृशसम्बन्धः तत्र इति न जानीमः, किन्तु बहुवारम् एतस्य अध्ययनं कृतवन्तः। इदानीं तत्र अग्रे प्रायशः अर्धभागे एव अस्ति इति मन्ये मूलपाठे, तदनन्तरम् अग्रे गन्तुं शक्नुमः। अतः तत्र कियत्पर्यन्तम् आगतवन्तः इति कोऽपि स्मरति वा अस्मिन् पाठे?
महोदय, तत्र 135 पृष्ठे सखे परेषां विषये चिन्ता त्यजतां भवता इति तत्र स्थगितवन्तः इति मन्ये महोदय।
अस्तु भगिनि, हा अस्तु, समीचीनं, हा अस्तु। अतः ततः एव आरम्भं कुर्मः, किन्तु तस्मात् प्राक् एकवारं तत्र नियमाः के इति तस्य पुनःस्मरणमपि भवतु। अतः तत्र नरेश् महोदय तत्र एकवारं स्मारयति वा महोदय, तत्र कर्मणि प्रयोगे इदानीं तत्र लोट् लकारः अस्ति, अतः सोपानानि कानि इति
कर्मणि प्रयोगे,
हा कर्मणि प्रयोगे तत्र कथं करणीयमिति, कथं करणीयमिति, हा
कर्तृप्रयोगे तु कर्तृपदं प्रथम विभक्ति, कर्मपदं द्वितीयविभक्ति, क्रियापदं कर्तृपदम् अनुसरति।
हा समीचीनं, हा
कर्मणि प्रयोगे कर्तृपदं तृतीयविभक्ति, कर्मपदं प्रथमाविभक्ति, अपि च क्रियापदं कर्मपदम् अनुसरति।
अतः समीचीनं महोदय, समीचीनं, हा समीचीनं। तत्र वचने अपि पुरुषे क्रियापदं कर्मपदम् अनुसरति, समीचीनं, हा अस्तु। इदानीं शोभा भगिनी, तत्र इदानीं तत्र लोट् लकारः कर्तुम् इच्छामश्चेत् तत्र एतत् स्वीकुर्मः, तत्र पठति इति अस्ति, पठति, हा पठति इति तस्य कर्मणि रूपं किं भवति? प्रथमपुरुषे एकवचने
कर्मणि,
हा
पठ्यते इति भवति महोदय,
पठ्यते, हा पठति इति स्थाने पठ्यते इति भवति। इदानीं तत्र पठ्यते इति आत्मनेपदी धातु क्रिया इति चिन्तनं खलु, तत्र नाम रूपाणि कानि, पठ्यते, पठ्येते, पठ्यन्ते इति खलु। इदानीं तस्य लोट् लकारः कः?
पठ्यताम् इति भवति,
हा पठ्यताम्,
पठ्येताम्, पठ्यन्ताम् इति भवति,
इति भवति। अतः तत्र सोपानद्वयम् अस्ति इति चिन्तयितुं शक्नुमः, नाम तत्र लोट् लकारः अपेक्षितः अस्ति चेत् तत्र कर्तृप्रयोगरूपं स्वीकृत्य कर्मणि प्रयोग लट् लकारः कृत्वा तदनन्तरं लोट् लकारं कर्तुं शक्नुमः। अतः तत्र पठ्यते, पठति, तेन तत्र पठ्यतां गन्तुं, पठति मध्ये पठ्यते, तदनन्तरं पठ्यताम् इति कुर्मश्चेत् सुलभः भवति। नो चेत् तत्र मध्ये पठ्यते नास्ति चेत् पठति पठ्यतां, तत्र एकवारमेव यदि कर्तुम् इच्छामः किञ्चित् क्लेशः भवति। अतः किन्तु इदानीं मूलविषये तु लोट्लकारः अस्ति, अतः प्रथमसोपानं लट्लकारः कर्मणि प्रयोगे, तदनन्तरं लोट्लकारः कुर्मश्चेत् सुलभः भवति. अस्तु, समीचीनम्. अस्तु, अग्रे तत्र शोभगिनी, अग्रे भवती एव तत्र पठति वा तत्र?
आम् महोदय. कर्णः सचे परेषां विषये चिन्ता त्यजतां भवता, परेषां विषये चिन्ता त्यज्यतां भवता, अस्माकं जनाः नायकाः गण्यन्ताम्.
तत्र प्रायशः मध्ये च स्थापितुं शक्नुमः,
अस्माकं जनाः नायकाः च गण्यन्ताम्. आम् महोदय. दुर्योधनः, द्विजोत्तम मम सैन्यस्य नायकाः एते. तत्र प्रथमं वदामि वा महोदय? सखे
तत्र
तत्र सखे इति सम्बोधन, तत्र सखी इति पुंलिङ्गे अस्ति, किन्तु सखा इति अपि अस्ति. तत्र कस्य रामः अस्ति चेत् न न राम एव
रामः तु रामः
अस्ति चेत् हरे इति भवति. हरिः अस्ति चेत् हरे इति भवति. सखी इति पुंलिङ्गपदं, सखे इति भवति. परेषां विषये चिन्ता त्यज्यतां भवता. तत्र त्यजति इत्यस्य त्यज्यते इति भवति, किं तत्र कर्मणि प्रयोगे, तस्य लोट्लकार प्रयोगे त्यज्यताम् इति भवति, भवता त्यज्यताम् इति, भवान् इत्यस्य भवता इति तृतीयविभक्तौ. तत्र अतः तत्र भवता चिन्ता त्यज्यतां परेषां विषये इति अपि वक्तुं शक्नुमः.
अतः तत्र त्यज्यताम् इति क्रियापदम्.
किं महोदय?
कर्तृपदं किम् अस्ति?
त्यज्यताम् इत्युक्ते तत्र भवता इति कर्तृपदं भवति, तृतीय
त्यज्यताम्. इदानीं तत्र कर्मपदम् अस्ति वा?
हा, तत्र चिन्ता इति प्रथमविभक्तौ कर्मपदं भवति.
अतः भवता चिन्ता त्यज्यताम्. इदानीं तत्र कर्तृरूपं किम् इति वदतु.
भवान् चिन्ता त्यजतु इति लोट्लकारे चिन्ता इति कर्मपदं भवति, द्वितीय भवति तत्र त्यजतु.
समीचीनं. भवान् चिन्तां त्यजतु. कस्मिन् विषये चिन्तां त्यजतु?
परेषां विषये.
परेषां
विषये तत्र किमपि परिवर्तनं न भवति. भवान् परेषां विषये चिन्तां त्यजतु.
परेषां विषये चिन्ता मा करोतु. मम नाम तत्र चिन्ता मास्तु. परेषाम् इति षष्ठी बहुवचनम्. परः अन्येषां, तत्र
अन्येषां विषये,
अन्येषां विषये चिन्ता मास्तु, अतः चिन्तां त्यजतु, भवान् त्यजतु. समीचीनं. अग्रे
अस्माकं जनाः नायकाः च गण्यन्ताम्. तत्र गण्यन्ताम् इति क्रियापदं भवति. तत्र
गण्यन्ताम् इति वचनं किम्?
गण्यन्ताम् इति बहुवचने भवति. तत्र यदि तत्र लोट्लकारे पठ्यताम् इति भवति, गण्यन्ताम् इति बहुवचने. तत्र जनाः नायकाः च गण्यन्ताम् अस्माकम् इति.
तत्र कर्तृपदं किम् अस्ति?
तत्र अस्माभिः इति भवति, अस्माभिः गण्यन्ताम् इति भवति किल महोदय, तृतीया भवनीयं तत्र,
अथवा तत्र तद् भवितुम् अर्हति, तत् भवितुम् अर्हति, अन्यत् किं भवितुम् अर्हति तत्र?
तत्र जनाः नायकाः इति
किमस्ति जनाः नायकाः?
तत्र प्रथमविभक्तौ कर्मपदं भवति तत्र,
समीचीनम्,
अतः तत्र अस्माकम् इति तु तथा एव तिष्ठति. तर्हि तत्र अस्माकं जनाः नायकाः अस्माभिः गण्यन्ताम् इति भवति वा महोदय? अस्माकं जनाः नायकाः गण्यन्ताम् इति भवति.
समीचीनं भगिनि, तत्र भवता गण्यन्तां, किं गण्यन्त अथवा के गण्यन्तं, जनाः नायकाः च गण्यन्ताम्
इति.
इदानीं तत्र कर्तृरूपं किम् अस्ति?
कर्त्री अस्ति चेत् भवान् अस्माकं जनान् नायकान् च गणयतु इति भवति.
उत्तमं भगिनि, अस्तु समीचीनं. भवान् तत्र अस्माकं जनान् नायकान् च गणयतु. समीचीनं भगिनि, तदेव अस्ति. उत्तमम्, अस्तु अग्रे.
अग्रे द्विजोत्तम, तत्र पुनः सम्बोधनरूपं, मम सैन्यस्य नायकाः एते इति, तत्र किमपि परिवर्तनं करणीयं नास्ति.
एते सन्ति
इति
तत्र भावे प्रयोगः केवलं लट्लकारे किं भवति?
भावे प्रयोगः लट्लकारे सन्ति इत्यस्य मम सैन्यस्य नायकाः एते सन्ति
कर्तृरूपम्. इदानीं कर्मणि रूपम्
अस्ति इति स्था धातुः, एते नायकाः स्थीयन्ते इति भवति महोदय.
न सन्ति स्थीयते न भगिनि, तत्र तिष्ठति इति स्थीयते, किन्तु तत्र
स्यात् इति एकवचने,
न स्यात् इति विधिलिङ्ग्, स्यात् इति विधिलिङ्ग्. न भगिनि, तत्र बहु केवलं तत्र किं बहु दिनानि अतीतानि इति तावदेव, किन्तु तत्र भू धातुः भगिनि तावदेव, भूयते
अस्तु. भूयन्ते इति भवति.
किन्तु भूयते इति भावे प्रयोगस्य नियमः,
प्रयोगे भू अकर्मकधातुः एकवचने एव, प्रथमे पुरुषे एकवचने एव,
अतः सर्वदा भूयते इति लट्लकारे, भूयताम् इति लोट्लकारे, अपि कर्तृपदस्य तृतीया विभक्त्यन्तम्, अतः किं भवति?
मम सैन्यस्य नायकाः तत्र नायकैः भूय,
नायकैः. समीचीनं भगिनि, अतः तत्र एतै तत्र एते इति स्थाने तत्र किं भवति?
भूयते भवति.
तैः एतैः,
क्षम्यताम्, एतैः एतैः अस्तु, तत्र मम सैन्यस्य नायकैः, एतैः नायकैः वा?
न, एतैः नायकैः भूयते,
नायकैः भूयते,
भूय अथवा भूयते इति केवलं, यतोहि लोट्लकारः न अपेक्षितः अत्र. समीचीनं, अस्तु समीचीनम्. अग्रे
द्रोणः वदति, अस्तु श्राव्यन्ताम् इति.
अत्र किमस्ति? भवता श्राव्यन्ताम्,
भवता श्राव्यन्ताम् इति.
तत्र के इति श्राव्यन्ताम्, तत्र श्राव्यन्ताम् इति तत्र बहुवचने अस्ति खलु, अतः कर्णपदं बहुवचने अस्ति, तत्र नायकान् अथवा नायकानां नामानि श्राव्यन्ताम् इति प्रायशः तत्र
तत्र अग्रे
नामानि श्रावयतु इति प्रायशः भवति, अतः नामानि श्राव्यन्तां, भवता नामानि श्राव्यन्ताम् इति भवति. समीचीनं भगिनि. अग्रे अपि तत्र अग्रिमवाक्यं,
हा, दुर्योधनः भवान् भीष्मः कृपः अश्वत्थामा विकर्णः भूरिश्रवाः एते कर्णादयः अन्ये अपि मदर्थे त्यक्तजीविताः
इति नामानि, इति नामानि
नामानि अधुना दुर्योधनः श्रावितवान्. तत्र
अतः तत्र त्यक्तजीविताः मदर्थे, मदर्थे नाम
मम कृते,
मम कृते किमर्थम् इति तत्र मदर्थे, मदर्थं मदर्थे त्यक्तजीविताः, तत्र जीवानि जीवनं त्यक्तुं
सिद्धाः
सन्ति. कस्य कृते? दुर्योधनस्य कृते, अथवा दुर्योधनाय जीवनं त्यक्तुं सिद्धाः चेते सर्वे, के तत्र भीष्मः द्रोणः एते सर्वे तत्र सिद्धाः सन्ति इति दुर्योधनः वदति. अस्तु, समीचीनं भगिनि. हा, अस्तु, अग्रे नरेश महोदय. सूर्यकुमारी भगिनि नमस्कारः, इदानीमेव प्रश्नमितं भगिनि. नमस्कारः भगिनि.
भीष्मः प्रतिहतम् अमङ्गलम्, जीवितानि न त्यज्यन्ताम्. प्रतिहतम् अमङ्गलं, प्रतिहतं
प्रतिहतम् इति पूर्वमेव तत्र हतम् अथवा तत्र समीचीनं, हा, तत्र ते तु इदानीमपि तत्र जीवन्ति, किन्तु तेषां मरणस्य विषये तत्र यदि किमपि वदामः तत् अमङ्गलं भवति खलु.
आम् आम्, सत्यं.
तत्र कृपः, अश्वत्थामा, विकर्णः, भूरिश्रवः, तत्र ते तत्रैव सन्ति. तेषां विषये तत्र ओ ते तु जीवनं त्यक्तुं सिद्धाः भवन्ति, तत्र मरणं प्राप्नुवन्ति चेदपि तत्र समस्या नास्ति इति तादृशं वदति खलु दुर्योधनः.
तत् अमङ्गलम् अस्ति.
अतः तत्र अमङ्गलम् इति वदति. हा,
जीवितानि न त्यज्यन्ताम्. ते जीवितः सन्ति तत्र न माजन् त्यज्यन्ताम्.
तत्र जीवितं, जीवितं नाम यः जीवति सः जीवितः. तत्र प्राणिः अपि जीवितः खलु, वृक्षः अपि जीवितः, यतोहि तस्मिन् प्राणः अस्ति, प्राणाः सन्ति, पञ्चप्राणाः सन्ति इति कृत्वा तत्र जीवितः, लिविङ्ग् बीङ्ग् इति जीवितः, जीवितम् इति नपुंसकलिङ्गे, जीवितानि न त्यज्यन्ताम्. तत्र त्यज्यन्ताम् इति अस्ति, तत्र क्रियापदं, कर्तृपदं किम् अस्ति, कर्मणि प्रयोगः अस्ति अत्र, भवत एव, भवता न त्यज्यन्ताम्, न त्यज्यन्ताम्. इदानीं कर्तृरूपं किम् अस्ति,
भवान् जीवितानि न त्यजतु.
हा, न त्यजतु, समीचीनं महोदय.
दुर्योधनः,
हा, अग्रे अस्तु, वदतु महोदय, पठतु.
दुर्योधनः आचार्य अनेन भीष्माभिरक्षितेन अस्माकं बलेन पर्याप्तेन न भूयते.
हा, इदानीं भूयते, तत्र लट्लकारः, भूयते, तत्र इदानीं भूयते इति सकर्मकः वा अकर्मकः वा?
अकर्मक,
अकर्मकः, अकर्मकः अस्ति चेत् कर्मपदं नास्ति, अतः अस्मिन् वाक्ये प्रथमविभक्त्यन्तं पदम् अस्ति वा?
प्रथम अनेन भीष्माभिरक्षितेन अस्माकं बलेन पर्याप्तं
नास्ति, यतोहि कर्मपदं नास्ति खलु, यतोहि कर्मपदम् एव
कर्मपदं प्रकर्मकः,
किन्तु एषः प्रयोगः भाविप्रयोगः, भूयते इति अकर्मकः धातुः, अतः तत्र कर्मपदं नास्ति. कर्तृपदस्य तृतीयाविभक्त्यन्तम् अत्र कर्तृपदं किम् अस्ति?
अनेन बलेन पर्याप्तेन,
बलेन पर्याप्तेन, समीचीनं, हा तदेव अस्ति, बलेन पर्याप्तेन इति एव
भूयते.
तत्र बलं, बलम् इति
बलं पर्याप्तं,
बलं नाम शक्तिः खलु, सैन्यस्य शक्तिः, सैन्यस्य बलम् इति व्यवहारः भवति खलु, अतः अस्माकं बलं नाम अस्माकं सैन्यस्य बलं,
बलं पर्याप्तं नास्ति,
नास्ति पर्याप्तं नास्ति, पर्याप्तं नास्ति नाम किम्?
सम्पूर्ण
पर्याप्तं नाम, हा तत्र पर्याप्तम् इति तत्र पुनः तत्र खादति वा, न न पर्याप्तम् इति तत् एषः प्रयोगः अपि अस्ति, किन्तु अत्र अर्थः कः? पर्याप्तं नाम मितिः नास्ति, लिमिट् नास्ति तस्य, तत्र पर्याप्तं नास्ति नाम तत्र बलं तत्र अधिकमस्ति, तत्र पाण्डवानां सैन्यम् अस्ति, किन्तु तेषां सैन्यस्य कृते अस्माकं सैन्यस्य बलम्, अस्माकं बलम् अधिकम् अस्ति, तत्र मितिः नास्ति,
मितिः नास्ति
हा इति, अतः पर्याप्तं नास्ति. अतः
तत्र पर्याप्तम् इति अव्ययपदम् अपि अस्ति, रूपद्वयम् अस्ति वा तत्र?
आं भगिनि, आम् आम् आम्, अत्र तु तत्र पर्याप्तम् इति तत्र तत्र कानिचन पदानि सन्ति खलु भगिनि, तत्र अव्ययरूपमपि अस्ति, अपि विशेषणरूपमपि अस्ति, अर्थभेदः अस्ति तत्र, नाम यथा भवति तत्र अव्ययमिति वदति, तत्र पर्याप्तं नाम पुनः तत्र किं चायपानम् आवश्यकं वा, न पर्याप्तम् इति वदामः, तत्र अव्ययम्,
तत्र इनफ् इति,
हा तत्र पर्याप्तं, तत्र अव्ययं, हा किन्तु अत्र किम् अस्ति, मितिः नास्ति इति अन्यः अर्थः अत्र, अतः तत्र विशेषणं भवति, तत्र बलम् इति पदस्य विशेषणम् अत्र पर्याप्तम्, अतः तत्र अर्थभेदेन तत्र अव्ययस्य तत्र विभक्ति किमपि नास्ति, तत्सर्वं भवति, किन्तु अत्र विशेषणमिति कृत्वा रूपाणि सन्ति, अतः अत्र तृतीयविभक्त्यन्तम् अस्ति इति इदानीं पर्याप्तेन इति कर्तृपदस्य तृतीयविभक्तिः, अतः विशेषणस्य अपि तृतीयाविभक्तिः अत्र. अतः इदानीं तत्र महोदय तत्र इदानीं तत्र कर्तरीरूपं वदतु.
कर्तरीरूपं तु अनेन भीष्माभिरक्षितेन बलेन पर्याप्तेन.
न न बलेन इति एव कर्तृपदं खलु, पर्याप्तेन इति केवलं विशेषणमस्ति. किं पर्याप्तं? बलं पर्याप्तं,
बलं पर्याप्तम्,
अतः
बलेन
बलं कर्तृरूपम्, इदानीं
कर्तृरूपं कर्तृरूपं या बलं पर्याप्तं नास्ति अस्माकं,
समीचीनम्, अस्माकं बलं पर्याप्तं
नास्ति,
नास्ति न अस्ति, अस्ति इति स्थाने कर्मणि प्रयोगे तत्र भू धातुः आगच्छति, अतः भूयते इति भवति, अतः तत्र अस्माकं बलं पर्याप्तं नास्ति. कीदृशं बलमस्ति अस्माकम्? अस्माकं पर्याप्तम्. अन्यत् अन्यत् किमपि वक्तुं शक्नुमः वा अस्माकं बलस्य बलस्य कृते? आम्, तत्र अस्माकं बलं भीष्माभिरक्षितेन अस्ति. भीष्मः अस्माकं बलं रक्षति, अतः तत्र भीष्माभिरक्षितं बलमस्ति अथवा भीष्माभिरक्षितेन अस्ति तत्र बलं, तत् पर्याप्तं नास्ति. अत्र प्रायशः महोदय तत्र भीष्माभिरक्षितम् इति तदपि तत्र तस्यापि तत्र विशेषणम् इति स्वीकर्तुं शक्नुमः.
चिन्तयामि तत्
अतः तत्र तत्रापि
अहं चिन्तयामि कर्तृरूपे अपि भीष्माभिरक्षितेन अस्ति तत् तृतीयविभक्तिः. यद्यपि कर्तृरूपम् अस्ति परन्तु भीष्माभिरक्षितेन बलं पर्याप्तं न अस्ति.
तत्र महोदय तत्र अहं चिन्तयामि तत्र अस्तु तत्र रक्षितं बलं तत्र प्रायश एतत् अनेन नाम अनेन इति तत्र प्रातिपदिकं किम् अनेन?
अयम्
अयं पुल्लिङ्गे नपुंसकलिङ्गे इदम् इति खलु
इदम् इदम् इदम्
अस्ति इदम्. अतः तत्र इदम्
इदं भीष्माभिरक्षितं
अस्माकं बलं बलं
पर्याप्तं
नास्ति.
पर्याप्तं नास्ति
नास्ति यतोहि तत्र एतदपि विशेषणम् इति भवति महोदय तत्र रक्षितम् अस्ति. तत्र प्रायशः तत्र भीष्मेण तत्र भीष्माभिरक्षितम् इति तत्पदं तस्य विभजनं कुर्मः चेत् भीष्मेण रक्षितम् इति तत्र भीष्मेण तिष्ठति. तत्र भीष्मेण कर्मणि वा कर्त्री वा तिष्ठति यतोहि केवलं रक्षितम् इति कर्तृपदं भवति विशेषणम् अस्ति किन्तु भीष्मेण इति तिष्ठति एव. किन्तु इदानीं कर्तृरूपं समीचीनं महोदय. अतः इदं भीष्माभिरक्षितम् अस्माकं
इदं भीष्माभिरक्षितम् अस्माकं बलं पर्याप्तं नास्ति.
हा तादृशमेव द्वितीयवाक्यमपि करोतु.
द्वितीय इदं भीष्मेन अभिरक्षितम् अस्माकं बलेन पर्याप्तं नास्ति.
न न द्वितीयवाक्यं तेन
भीमाभिरक्षितेन पाण्डवानां सैन्येन पर्याप्तेन भूयते इति मन्ये. तेन भीमाभिरक्षितेन पाण्डवानां सैन्येन पर्याप्तेन भूयते इति मन्ये. भीमाभिरक्षितेन तत्र पाण्डवानां विषये अस्ति. पाण्डवानां सैन्येन पर्याप्तं पाण्डवानां सैन्यं पर्याप्तेन अस्ति अपि मन्ये. भीमाभिरक्षितेन भीमाभिरक्षितं पाण्डवानां सैन्यं पर्याप्तम् अस्ति इति मन्ये.
इति मन्ये समीचीनं महोदय. समीचीनम् उत्तमम् अस्तु.
भीष्मः वत्स सातङ्कहृदयेन भवता अवाच्यम् उच्यते. सातङ्कहृदयेन भवता अवाच्यम् उच्यते. सातङ्क किमस्ति? हृदयेन भवता.
हा, इदानीं तत्र केवलं प्रथमतया तत्र उच्यते इति क्रियापदम्
उच्यते,
लट्लकारे उच्यते. कर्तृपदं किमस्ति?
भवता.
भवता, भवता उच्यते. कर्मपदं किमस्ति?
अवाच्यम्.
अवाच्यम्, हा, अवाच्यम् इति कर्तृपदं, कर्मपदं, क्षम्यताम्. हा, अतः इदानीं तत्र तस्य लघुवाक्यस्य कर्तृरूपं वदतु. भवान्,
भवान् अवाच्यं वदति.
हा, अथवा वक्ति. हा,
वक्ति.
तत्र भवान् अवाच्यं, तत् यद् न वक्तव्यं तद् भवान् वदति. अवाच्यं नाम
अवाच्यं,
यद् वक्तव्यं न, यत् यद् न वक्तव्यं तद् भवान् उक्तवान्. हा, तत्र सातङ्कहृदयेन, स नाम तत्र आतङ्कहृदयेन, हृदयम् आतङ्कम्, आतङ्कः नाम, आतङ्क नाम भीति, भीतिपूर्णः,
भीतिपूर्णः,
तत्र भययुक्त, तत्र आतङ्क, आतङ्क, स नाम
आतङ्क,
स आतङ्क वित् इति अर्थे. हा, तत्र सपत्नी सातङ्क, सः इति अर्थे. तत्र आतङ्कः इति पुल्लिङ्गपदम्, आतङ्केन सह अस्ति हृदयः. हा, हृदयं कीदृशं? तत्र आतङ्केन सह अस्ति, आतङ्कपूरितः अस्ति. अतः तत्र सातङ्कहृदयेन, तत्र तेन कारणेन भवान् अवाच्यम् इति, अथवा वदति. हा, इति समीचीनं महोदय. अस्तु, अग्रे गीताञ्जलि भगिनी.
आं महोदय. आचार्य, एतेन वृद्धेन पितामहेन किमपि चिन्त्यतां नाम भवद्भिः सर्वैः यथा भागं यथा स्थानम् अवस्थितैः भूयताम्. अस्तु, आचार्य तु सम्बोधन, दुर्योधन उक्तवान्, एतेन वृद्धेन पितामहेन किमपि चिन्त्याम चिन्त्यतां नाम, चिन्त्यतां नाम इति लघुवाक्यम्.
तत्र पितामहेन किमपि चिन्त्यताम् इति स्वीकरोतु.
पितामहेन किमपि चिन्त्यताम्, पितामहः किमपि चिन्तयति वा,
चिन्तयतु,
चिन्त्यतां तु एकवचने, चिन्त्यतां, चिन्तयतु वा, लोट् अस्ति
चेत्
पितामहः किमपि चिन्तयतु इति. एतेन वृद्धेन पितामहेन इति तु सर्वे विशेषणपदानि सन्ति.
पितामहः किमपि चिन्तयतु नाम अपि तत्र एतेन वृद्धेन तत्र किं भवति?
अविशेषणपदानि पदे.
अतः तत्र कर्तृरूपं पूर्णवाक्यस्य,
एषः वृद्धः पितामहः किमपि चिन्तयतु नाम.
हा, नाम, नाम इति पदं किं सूचयति?
यथा भवान् सर्वदा उपयोजं कर्तुं महोदय, नाम इत्युक्ते किं,
लैक्
दिस्.
हा, तत्र अर्थद्वयं पुनः भगिनि. तत्र नाम इति नाम किम् इत्युक्ते तत्र अस्तु तद् भवती उक्तवती नाम किम् इत्युक्ते अर्थः कः इति अन्यत् अस्ति अत्र भवतु नाम इत्युक्ते लेट् इट् बि तत्र किमपि तेन किमपि नास्ति अतः इदानीं तत्र दुर्योधन वदति भीष्मपितामहः तत्र बहु किमपि वदति चिन्तयति तेन किं न कोऽपि लाभः त्यजतु इति तत्र अनादरः अस्ति अत्र खलु
महोदय
अनादरः अस्ति तत्र भीष्मः पितामहः सः किमपि चिन्तयतु तेन किं तत्र नाम नाम त्यजन्तु तत् तत् सर्वे त्यजन्तु तत्र सः किं चिन्तयति तत् सर्वं त्यजन्तु इति वक्तुम् इच्छति अतः नाम सः किमपि वदतु नाम अथवा सः किमपि
नाम अर्थद्वयं भवतु नाम इति तु सरलम् अत्र अत्र इति न अत्र तु द्वितीय अर्थः न महोदय इत्युक्ते एषः वृद्धः पितामहः किमपि चिन्त्यतां नाम इति समीचीनं न महोदय
चिन्तयतु नाम चिन्तयतु
नाम
भवतु नाम इति अर्थे तत्र तस्य चिन्तनस्य महत्त्वं किमपि नास्ति
नास्ति नास्ति किन्तु द्वितीय अर्थः पुनः वदतु महोदय नाम कथं वदामः
अन्यः अर्थः अस्ति तत्र किमपि तत्र दीर्घवाक्यं स्वीकुर्मः तत्र पलेच्छाम्बिनकार्याणि क्रियन्ताम् इति कोऽपि वदति चेत् तत्र अस्तु नाम किं तत्र तस्य वाक्यस्य अर्थः कः इति
नाम किम् अस्तु अस्तु अस्तु
नाम किं
नाम किम्
इति तत्र किमपि अस्ति तदनन्तरं नाम इति वदामश्चेत् तदनन्तरं किम् अग्रे किं भवति अग्रे अर्थः कः इति भवति
सत्यं
पूर्वं तत्र किमपि अस्ति विषयः नाम तदनन्तरं द्वितीयभागे तत्र विषयस्य अर्थः सारल्यरूपेण यदि वदामः चेत् तत्र मध्ये नाम इति स्थापयामः
अस्तु 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 भवद्भिः सर्वैः यथा भागं यथा स्थानम् अवस्थितैः भूयताम् तत्र
तत्र अकर्मकः
अकर्मकः अस्ति इत्युक्ते भावे अस्ति अत्र भूयतां तु लट् रूपम् इत्युक्ते कर्मपदं नास्ति तत्र लघुवाक्यं
भवतु अथवा अस्तु कर्मणि रूपे
कर्मणि रूपे तु भवतु कर्तृपदम् अत्र तु भवद्भिः इत्युक्ते बहुवचन तृतीय अस्ति तत्र भवद्भिः सर्वैः
अत्यन्तं किमस्ति
कर्तृ भव कथं भवद्भिः
न न भवद्भिः तृतीयविभक्त्यन्तमस्ति बहुवचनं प्रथमाविभक्त्यन्तं बहुवचनं किमस्ति
भवता एकवचनमस्ति एकनिमिषं महोदय
भवान् भवान् भवन्तः
भवान् तौ भवन्तः
हा भवन्तः
भवन्तः भवन्तः सर्वे
भवन्तः सर्वे
भवन्तः सर्वे भूयताम्
भवन्तः सर्वे
न भवन्तः सर्वे भवन्तु
भवन्तु भवन्तः सर्वे भवन्तु कुत्र भवन्तु
कुत्र भवन्तु यथा भागं यथा स्थानम् अवस्थि अवस्थितं
न न इदानीम् अवस्थितैः इति अस्ति अवस्थितैः नाम
तैः अवस्थितैः इति तु तृतीया किन्तु
तत्र स्थितः तत्र तिष्ठति अवतिष्ठति न न न अवस्थितैः नाम तत्र स्थितः स्थितः नाम तप्रत्ययः तत्र तप्रत्ययः
अवस्थितैः
स्थितः सः तत्र स्थितः अस्ति नाम तत्र तिष्ठति सः अतः सः स्थितः अस्ति स्थितः स्थितौ स्थिताः अकारान्तपदं पुल्लिङ्गे तत्र अव इति उपसर्गः अवस्थितः अवस्थितौ अवस्थिताः
अवस्थित सो अत्र अत्र तदे अवस्थिताः भवन्तु इत्युक्ते भवन्तः सर्वे यथा भागं तत्तु तिष्ठति यथा भागं यथा स्थानम् लट् अस्ति चेत् अवस्थिताः भवन्तु
भवन्तु अवस्थिताः नाम एकस्मिन् स्थले एव फिक्स्ड् इति अर्थे तत्र यथा भागं यथा स्थानं यत् स्थाने यस्मिन् स्थाने भवन्तः
सन्ति
तत्र भवद्भिः स्थातव्यं यस्मिन् स्थाने भवद्भिः स्थातव्यं तस्मिन् स्थाने एव तत्र अवस्थिताः भवन्तु
अवस्थिताः भवन्तु अपि अपि च तिष्ठन्तु
तिष्ठन्तु हा समीचीनं हा समीचीनं भगिनि हा
भवन्तु अवस्थिताः तिष्ठन्तु
अग्रे
हा द्रोणः वदति वत्स भीष्मस्य रक्षणम् एव अस्माकं मुख्यम्
अस्ति
अस्ति
मुख्यं नाम मुख्यं कार्यम् अस्ति मुख्यं कार्यम् अस्माकं मुख्यं कार्यं किम् अस्ति
भीष्मस्य वाक्यं तु मुख्यमस्ति किं मुख्यं भीष्मस्य रक्षणं मुख्यमस्ति कस्य रक्षणं भीष्मस्य
एव इति अस्ति एव अस्ति चेत् सीमां करोति तत्र सीमा नाम केवलं केवलं रक्षणम् अन्यत् अन्यत् मुख्यं नास्ति केवलं रक्षणम् एव मुख्यम् अस्ति
मुख्यमस्ति कस्य अस्माकं कार्यम्
अस्माकं मुख्यमस्ति किन्तु कस्य रक्षणं भीष्मस्य रक्षणं
भीष्मस्य अस्माकं कार्यम् इति अपि
कार्यं सत्यं अस्माकं मुख्यं कार्यम् अस्ति भीष्मस्य
भीष्मस्य रक्षणं
तत्र
तु
यदि तत्र कर्मणि भावे प्रयोगे करोति चेत् किं भवति
भावे अस्ति चेत् भावे अस्ति चेत् अस्धातु अस्माकम् इत्युक्ते अहं
अस्ति इति तत्र अस्ति इति तत्र कर्मणि रूपं भवति भूयते
अस्माकं कार्यम् इति इत्युक्ते अस्माकमेव
कार्यं हा अस्माकं तिष्ठति किन्तु तत्र मुख्यम् इति किं भवति मुख्यं कार्यं तत्र कर्तृपदं खलु
हा मुख्यम्
अतः तृतीयविभक्त्यन्तं
मुख्येन
सत्यं महोदय सत्यं सत्यम् अस्माकं मुख्येन कार्येण भूयते
भूयते हा मुख्येन भूयते अस्माकं
भीष्मस्य रक्षणेन एव अस्माकं मुख्येन कार्येण भूयते
भीष्मस्य रक्षणेन
एव
किमर्थं रक्षणेन
रक्षणम् एव अस्माकं मुख्यं कार्यं खलु रक्षणम्
अस्तु अस्तु विशेषणमस्ति
हा रक्षणम् इति कार्यं प्रायशः तत्र तत्र विशेषणं नास्ति इति अपि तत्र एव इति अस्ति तत्र किन्तु तत्र एव इति नास्ति चेत् रक्षणम् अस्माकं कार्यम् इति भवति अतः तत्र कार्यं किं रक्षणम् अतः तत्र विशेषणम् इति एव भवति भगिनि तत्र
सुरक्षणेन मुख्येन अस्माकं
भूयते
भूयते
तत्र सन्देहः महोदय विशेषणं कथं महोदय भीष्मस्य रक्षणम् अस्माकं मुख्यकार्यं
मुख्यं रक्षणम् इत्युक्ते किं मुख्यं किं
कार्यं मुख्यं भवति तत्र मुख्यकार्यं कार्यस्य अस्तु कार्यस्य विशेषणं भवति
सत्यं भगिनि तत्र एव इति
नास्ति
कार्यमिति नास्ति किन्तु सत्यं भगिनि तत्र एकं चिन्तयितुं शक्नुमः तत्र एव इति मध्ये अस्ति खलु तत्र एव इति स्थाने तत्र एव इति अस्ति इति कृत्वा तत्र वाक्यद्वयम् अस्ति इति चिन्तयितुं शक्नुमः किन्तु तत्र किं वदामः तत्र तत्र अस्माकं तत्र कार्यमपि कार्यमिति योजयामः अस्माकं मुख्यमिति त्यजामः अस्माकं कार्यमिति चिन्तयामः इदानीं भीष्मस्य अपि त्यजामः रक्षणम् एव अस्माकं कार्यम् इदानीम् अस्माकं कार्यम् अस्ति किम् अस्ति रक्षणमेव अस्माकं कार्यम् अस्ति खलु तत्र एव इत्युक्ते किं तत्र एव इति सीमां सूचयति तत्र अन्यत् अन्यत् कार्यं नास्ति केवलं रक्षणमेव अस्माकं कार्यम् इति सूचयति खलु अस्तु अतः तत्र अस्माकं कार्यं रक्षणम् अस्ति अतः तत्र किं वदामः रामः उत्तमः अस्ति तत्र किम् अस्ति
उत्तमः रामः
उत्तमः विशेषणं भवति तत्र
रामः उत्तमः अस्ति नाम रामः कीदृशः उत्तमः अस्ति अस्माकं कार्यं किम् अस्ति रक्षणम् अस्ति रक्षणम् एव अस्माकं
कार्यस्य विशेषणं भवति तत्र न तु मुख्यम् इत्यस्य
हा सत्यं सत्यं हा 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 कार्यस्य इति पदस्य विशेषणं भवति सत्यं भवति
तत्र एव
सत्यं भगिनि सत्यम्
इत्युक्ते
वदतु भगिनि
वदामः रक्षणेन कार्येण
सत्यं
रक्षणेन कार्येण
रक्षणेन एव अस्माकं मुख्येन कार्येण भूयते तत्र यदि तत्र इति आसीत् एव इति स्थाने इति आसीत् चेत् तत्र किं भिन्नवाक्यम् इति चिन्तयितुं शक्नुमः भीष्मस्य रक्षणम्
इति अस्माकं मुख्यं कार्यम्
इति यदि वाक्यम् आसीत् अथवा स्यात् तदा किं भवति भीष्मस्य रक्षणम् इति अस्माकं मुख्येन कार्येण भूयते इति तत्र भेदः तत्र भीष्मस्य रक्षणं भिन्नं वाक्यम् अस्माकं रक्षण अस्माकं मुख्यं रक्षणं भिन्नं वाक्यम् इति चिन्तयितुं शक्नुमः
अस्तु अस्तु इति अस्ति चेत्
इति अस्ति चेत् किन्तु अत्र एव इति एव केवलं सीमां करोति तत्र वाक्यद्वयम् इति न चिन्तयितुं शक्नुमः खलु
आं महोदय
अतः विशेषणम् इति भवति यदि तत्र इति आसीत् चेत् तत्र विशेषणं नास्ति इति चिन्तनं भवति यतोहि भिन्नभिन्नवाक्यं वाक्यद्वयं तत्र अस्ति अतः एकस्मिन् वाक्ये यानि पदानि सन्ति तत्र तयोः सम्बन्धः तेषां सम्बन्धः अन्यस्मिन् वाक्ये ये यानि पदानि सन्ति तत्र तेषां मध्ये तत्र किमपि तत्र सम्बन्धः कोऽपि सम्बन्धः नास्ति इति चिन्तयितुं शक्नुमः
आं महोदय
अस्तु समीचीनं अग्रे
दुर्योधनः वदति अस्तु अयं भीष्मः एव सर्वैः अभिरक्ष्यताम् सर्वैः अभिरक्ष्यताम् इति मूलवाक्यम् अयं भीष्मः एव अत्रापि समान एव अस्ति इत्युक्ते सीमा अस्ति तत्र सर्वैः अभिरक्षताम् इत्युक्ते सर्वे अभिरक्षन्तु सर्वे अभिरक्षन्तु
सर्वे अभिरक्षन्तु
इति
अभिरक्षन्तु इदानीं तत्र कर्मपदम् इदानीं योजयतु तत्र
कं रक्षन्तु एषः कथं वदामः
अत्र भीष्मः इति अस्ति अतः
भीष्मः भीष्मम्
अतः सर्वे
भीष्मं रक्षन्तु
अभिरक्षन्तु
एतं भीष्मं सर्वे अभिरक्षन्तु
तत्र एषः आसीत् चेत् एतम् इति भवति किन्तु अयम् अस्ति अतः अयं पदस्य इमम् अथवा एनम् इमम् अथवा एनं समानार्थकः किन्तु तत्र अयम् इति पदभिन्नभिन्नपदम् अतः इमम् अतः सर्वे इमं भीष्मम् एव
अभिरक्षन्तु
समीचीनं अग्रे
भीष्मः वदति वत्स मा भीयताम् अहं खलु भीष्मः नाम्ना क्रियया च दृश्यतां श्रूयतां च धाहः मा भीयताम् मा भीयताम् मा भीति करोतु न मा भीति करोतु मा महोदय कथं वदामः मा
भीति इति प्रायशः तत्र भीयताम् इति मा भीति इति क्रियापदम् इति चिन्तयामि
भी धातु न महोदय
भीतु
इति वा महोदय
अहं चिन्तयामि बिभीतु
बिभीतु अस्तु महोदय हा
लट् बिभेति
जुहोत्वादिगणे अस्ति खलु तत्र हा
जुहोत्यादिगणे
हा बिभेति इति हा
भीयता मा बिभेति
बिभेति इति लट्लकारे
मा बिभेति भीयता
तत्र लोट्लकारे भगिनी तत्र बिभेतु
लोट् अस्ति
बिभेतु
बिभेतु अस्तु मा बिभेतु
तत्र भवान् भवान् तत्र भवता
भवान्
भवान्
मा बिभेतु अपि च भवता मा भीयताम्
इति समीचीनम्
अहं खलु भीष्मः नाम्ना क्रियया च
अर्थः कः इदानीं नाम किं नाम वाक्यस्य अर्थः कः इदानीं नाम तत्र अहं खलु भीष्मः नाम्ना क्रियया च इति वाक्यस्य अर्थः कः नाम किम्
नाम किम् इत्युक्ते अर्थः
अर्थः कः अस्य वाक्यस्य
अर्थः कः इति अहं खलु भीष्मः नाम्ना क्रियया च तत्र नाम्ना क्रियया एते विशेष महोदय
क्रियया इति तृतीया नाम्ना
तृतीया नाम्ना नाम्ना क्रियया इत्युक्ते किं केन क्रियया केन क्रियया इति महोदय
तत्र भीष्मः एतद् वदति भगिनि खलु भीष्मः एव वदति भीष्मः नाम किम्
भीष्मः नाम्ना क्रियया च
किन्तु
बिभेति इति वा भीष्मः इत्युक्ते
किं भगिनि
बिभेति इति वा महोदय
न भीष्मः
इति वा
न भीष्मः इति तस्य नाम कथम् आगतं भीष्मः
इत्युक्ते भीष्मः वदति मम नाम अपि भीष्मः अपि च मम कार्यमपि
समीचीनं
भवति पूर्ण नास्ति
भीष्मः नाम तत्र तत्र भयङ्करम् इति
भयङ्करः मम नाम
अतः तत्र
किन्तु तत्र अन्यत् रीत्या वदामः चेत् अन्ये अन्यान् बिभेति इति अन्ये बिभेति इत्यस्य किम् अस्ति महोदय तत्र
तत्र अन्यान् बिभ्यति इति नास्ति भगिनि हा हा तत्र अन्यं बिभ्यति इति नास्ति केवलं सः तत्र उग्रः अस्ति इति चिन्तयतु
हा अन्यत् एकः प्रश्नः तत्र महोदय भयङ्करः इति उक्तवान् इत्युक्ते भयं कारयति इति वा किल इति वा
न केवलं भयङ्करः इत्युक्ते केवलं तादृशः अस्ति इति
हा
कारयति इति किमपि नास्ति केवलं तस्य सः कीदृशः भयङ्करः
यदि कोऽपि तं पश्यति तदा
अस्तु अस्तु तत्र भयम् अनुभवति इति अपि अर्थः अस्तु अस्तु सत्यं सत्यं भगिनि तत्र हा तादृश तत्र उग्रः इति भीष्मः नाम उग्रः इति नाम तत्र सः किं वदति तत्र तस्य नाम किमर्थं भीष्मः इति अस्ति यतोहि तत्र सः तादृशं किं तत्र सङ्कल्पं कृतवान् खलु सः तस्य सङ्कल्पं तत्र प्रतिज्ञा कृतवान्
खलु
तत्र तादृशी प्रतिज्ञा तत्र अन्यैः कदापि न कृता खलु अतः तत्र भीष्म अतः तस्य नाम भीष्म इति अस्ति अतः नाम्ना सः भीष्मः किन्तु केवलं तत्र प्रतिज्ञां कृतवान् तदनन्तरं तत्र सः अन्यत् किमपि न कृतवान् इति न सः युद्धे अपि सः भीष्मः अस्ति अतः क्रियया अपि सः भीष्मः नाम युद्धे सः उग्रः अस्ति
नाम्ना सः भीष्मः इति सम्पूर्णवाक्यम्
अस्ति महोदय नाम्ना नाम तस्य नाम अस्ति भीष्मः
अस्तु नाम्ना सः भीष्मः इति सम्पूर्णवाक्यं
नाम्ना सः भीष्मः इति नास्ति केवलम् अहं भीष्मः नाम्ना अस्मि नाम मम नाम भीष्मः अस्ति इति अर्थः नाम्ना बै नेम् इति अर्थः तावदेव
न वाक्यं लघुवाक्यं
भवति केवलम् अहं भीष्मः नाम्ना अहं भीष्मः अस्मि
अहं भीष्मः अस्मि तु अवगतं किन्तु नाम्ना
अहं नाम्ना भीष्मः अस्मि इति लघुवाक्यम्
ओ अस्तु अहं
सः इति पदं तत्र न आगच्छति
ओके ओके अस्तु अहं नाम्ना भीष्मः
अस्मि सः नाम्ना भीष्मः अस्ति
महोदय तत्र
अवगतम्
अहं न तु नाम्ना भीष्मः किन्तु अपि तु क्रियया अपि भीष्मः इति
न तु न अपि तु अपि तु
अपि तु अपि तु
क्रियया अपि अहं भीष्मः सत्यं नाम केवलं नाम्ना न क्रियया अपि अहं भीष्मः नाम युद्धे अपि अहं भीष्मः अस्मि नाम अहम् उग्रः अस्मि युद्धे इति
वृद्धः अस्मि तदेव दुर्योधनस्य
चिन्तनं किन्तु सः वदति तत्र मा बिभेतु अतः भीतिं मा अनुभवतु अहं तु युद्धे बहु किमपि कर्तुं शक्नोमि अहं युद्धे उग्रः अस्मि इति सः वदति अतः केवलं नाम्ना भीष्मः न तत्र क्रियया अपि अहं भीष्मः इति
इत्युक्ते अहं खलु भीष्मः नाम्ना क्रियया च च अस्मि
अस्मि सत्यम्
इति लट् रूपमेव
हा अन्य कोऽपि भीष्मः नाम्ना भवितुम् अर्हति किन्तु एषः केवलं नाम्ना भीष्मः न क्रियया अपि सः भीष्मः
भीष्मः अधुना कर्मणि लोट् अस्ति चेत् मया खलु
कर्मणि लट् एव भवति
कर्मणि क्षम्यतां मया क्षम्यतां कर्मणि लट् अस्ति चेत् मया मया खलु
भीष्मेण
नाम्ना क्रियया च
भूयते हा किन्तु अत्र कर्मणि केशकरः अस्ति यतोहि तत्र सर्वं तृतीयान्तं तृतीयाविभक्त्यन्तमस्ति
क्लिष्टा जाता तत्र किन्तु भीष्मेण नाम्ना क्रियया तु किमपि अन्य विभक्ति न स्वीकरोति
तिष्ठति एव तस्य परिवर्तनं नास्ति सत्यम्
अस्तु अस्तु अधुना अवगतं महोदय
अस्तु अग्रे दृश्यतां श्रूयतां
च इत्युक्ते पश्यतु शृणोतु
भवान् पश्यतु शृणोतु च
हसति
तदनन्तरं शङ्खं धमति
शङ्खं धमति इत्युक्ते भीष्मस्य शङ्खं भीष्मः शङ्खं धमति तद् अपि कर्मणि लट् अस्ति चेत् भीष्मेण शङ्खः धम्यते
तत्र धम् तदेव अस्ति इति मन्ये भगिनि धमति
न जानामि अहं तु
धम इति धातुः अस्ति भगिनि अतः मयते इति प्रायशः
मयते ओ अस्ति
मयते इति प्रायशः अस्ति भगिनि तत्र हा तत्र धमते इति न मयते इति प्रायशः अस्ति
मयते अस्तु
धम इति धातुः
भावे
ओ
दिद्मासति
इति अस्ति हा तत्
अपि च दिद्मासति
भगिनि तत्र ध्मा इति तत्र तदेव अस्ति वा इति न जानामि भगिनि अस्तु अतः त्यजामः त्यजामः भगिनि तत्र किं दोषः मास्तु इति कृत्वा अस्तु भीष्मः
अभिरक्ष्यतां भीष्मेण जीयतां तत्र भीष्मः अभिरक्ष्यतां
तत्र अस्माभिः भीष्मः
अभिरक्ष्यताम् अपि च वयं भीष्मम्
पुनः अस्माभिः भीष्मः अभिरक्ष्यतां द्विवारं कर्तृरूपं किम् अस्ति
हा कर्तृ लट् अस्ति वयं
न न लोट् एव अभिरक्ष्यताम् इति अस्ति खलु
हा रक्ष्यतां लोट् क्षम्यतां
वयं
भीष्मम् अभि रक्षन्तु न न न न उत्तमपुरुषे अभि अभिधत्ते रक्षामः वा
रक्षाम अभिरक्षाम वयं भीष्म अभिरक्षाम
वयं भीष्म
तत्र यकारः नास्ति केवलं रक्षाम वयं भीष्मम् अभिरक्षाम इदानीं तत्र भीष्मेण जीयतां तत्र किं भवति तत्र जीयतां
जयतु भीष्मः
जयतु भीष्मः जयतु कर्मपदं नास्ति तत्र केवलं जयतु तत्र भाविप्रयोगः तत्र जयति अथवा जयते इति प्रायशः भीष्मः जयतु इति एव हा तत्र परस्मैपदीरूपमेव अस्ति इति मन्ये जयति जयते इति नास्ति खलु
धातु
जयति तत्र जयति इति एव अस्ति परस्मैपदी जयति
धन्यवादः
तत्र पाठं समापितवन्तः बहुवारं तत्र प्रयासः कृतः बहुवारम् अस्माभिः प्रयासः कृतः तत्र पाठनस्य समापनाय किन्तु अद्य एव तत्र तत्र समापितवन्तः
सत्यं महोदय किन्तु बहु उत्तमः पाठः बहु किमपि तत्र
सत्यं भगिनि तत्र बहु किमपि अतीतवन्तः अस्मिन् पाठे अस्तु अतः तत्र अत्र वयं तत्र अभ्यासाः ये सन्ति तां कृतवन्तः वा अथवा न कृतवन्तः
एकवारं कृतवन्तः किन्तु पुनः अपि
चत्वारिंशत् अधिक एकशतं शतमं शतपर्यन्तम् इति मन्ये
कियत् पर्यन्तं भगिनि
140 पर्यन्तं महोदय
कृतवन्तः वा
आम् प्रथमम् अभ्यासं कृतवन्तः अनन्तरं न प्रथमं किन्तु कृतवन्तः अधुना न स्मरामि अभ्यासं कृतवन्तः महोदय
अस्तु अस्तु भगिनि अस्तु अस्तु तर्हि
किन्तु पुनरपि अहं तु सिद्धा अस्मि भवान् वदतु महोदय किं
मम किमपि यथा इच्छा तत्र यदि भवन्तः इच्छन्ति कर्तुं शक्नुमः तत्र
सर्वे किं
कुर्मः भगिनि तत्र कुर्मः तर्हि तत्र यतोहि तत्र दीर्घकालतया केवलं तत्र लोट्लकारस्य कर्मणि रूपमेव तत्र दृष्ट्वा प्रायशः तत्र अतः अहं चिन्तयामि प्रायशः अद्य केवलं तत्र नूतनविषयः भवतु इति कृत्वा
तत्र
किं कुर्मः तत्र गृहपाठरूपेण तत्र अभ्यासं कुर्मः अग्रिमे वर्गे तत्र प्रश्नाः सन्ति चेत् अभ्यासे तां परिशीलयामः नो चेत् तत्र अतः तत्र अग्रिमे वर्गे तत्र अभ्यासान् अभ्यासेषु तत्र कोऽपि क्लेशः अस्ति चेत् तं परिशीलयामः इदानीं तत्र इदानीम् अग्रे गच्छामः तत्र लङ्लकारः पुनः कर्मणि भावे प्रयोगे तत्र लङ्लकारः तदनन्तरं तत्र किमस्ति तत्र अस्माकं तत्र तदनन्तरं तत्र लिङ्लकारे अस्ति तदनन्तरं तत्र अनियर् सव्यत् अनियर् इति अस्ति तदनन्तरं शत्रन्तरूपं तदन् तावदेव अस्ति इति मन्ये अतः तत्र शत्रन्त अपि तत्र शानज् हा इति अस्ति अतः तत्र पुस्तकस्य अन्तिमभाग अन्तिम तत्र समाप्तिः तत्र सन्निहितः सन्निहिता अस्ति अस्तु तर्हि अग्रे सरामः केवलं तत्र नूतनविषयः भवतु इति कृत्वा अतः तत्र सूर्यकुमारी भगिनी भवती तत्र अग्रिमे अग्रिमं पाठम् आरम्भं करोति वा भगिनि
आं महोदय एकविंशतिपाठः
द्वाविंशतिः
एकविंशति न
एकविंशति महोदय
धन्यवादः मम दोषः आसीत् हा एकविंशतिः सत्यं भगिनि क्षम्यताम्
परेषां दुःखं स्वदुःखं
परेषां पूर्वमपि आसीत् खलु परेषां नाम षष्टि बहुवचनं तेषां
दुःखं स्वदुःखं
स्वदुःखं नाम तेषां दुःखम् अस्माकं दुःखमेव तत्र भेदः नास्ति
महोदय तत्र एकं एका सूक्तिः अपि आसीत् अग्रिमवर्गे कुर्मः वा
आं भगिनि भगिनि तत्र अग्रिमवर्गे तत्र अभ्यासान् परिशीलयामः अपि तत्र श्लोकः अस्ति तद् प्रायशः न पठितवन्तः अपि सूक्तिः द्वयमपि तत्र अग्रिमवर्गे आरम्भे कुर्मः भगिनि
अस्तु महोदय
अस्तु
कथाम् उच्चैः पठिता कर्मणि भावे प्रयोगः लङ् लकारः कस्मिंश्चित् ग्रामे काचित् वृद्धा पुत्रेण सह निवसति स्म मातापुत्रौ उभौ अपि दयापरौ लघुगृहे एव आसीत् तयोः वासः कदाचित् वृद्धा रुग्णा जाता औषधस्य निर्माणाय तया लोध्रवृक्षस्य त्वक् ऐष्यत तयाः पुत्राः आहूयत स्त्रिया अपेक्षा असूच्यत च अग्रे पठामि महोदय
अग्रे अपि पठतु भगिनि
पुत्रेण वनम् अगम्यत बहुत्र अन्विष्य अन्ते तेन लोग्रवृक्षः अदृश्यत तेन परस्वना लोग्रत्वचः अकृत्यन्त ताः सर्वाः सङ्गृह्य गृहम् आनीय मात्रे अधीयन्त मात्रा लोग्रत्वच औषधम् अक्रियत तस्य सेवनेन सा शीघ्रमेव रोगमुक्ता जाता पुनः कदाचित् तया पुत्रस्य रक्तरञ्जितं श्वेतवस्त्रम् आलोक्यत तया आतङ्केन पुत्रः अपृच्छ्यत वच भवतः श्वेतवस्त्रं कथं रक्तमयं सञ्जातम् इति पुत्रेण न किमपि अकथ्यत तेन तूष्णीम् अस्तीयत तदा मात्रा सानुरोधम् अपृच्छ्यत पुत्र किं जातम् उच्यताम् इति
हा समीचीनं भगिनि हा अस्तु अग्रे नरेश महोदय
हा महोदय तदा पुत्रेण अकथ्यत अम्ब तस्मिन् दिने लोध्रवृक्षस्य छेदनसमये मम मनसि विचारः उत्पन्नः यत् त्वचः निष्कासनसमये तेन वृक्षेण कियती वेदना अनुभूता स्यात् यद्यपि तेन वक्तुं न शक्यते तथापि वेदना स्यादेव इति अद्य मया निश्चितं यत् वृक्षस्य कीदृशी वेदना जाता स्यात् इति मया ज्ञातव्यम् इति अतः मया मम शरीरस्य किञ्चित् चर्म अकर्त्यत ततः रक्तप्रवाहः आरब्धः तेन मम श्वेतवस्त्रं रक्तरञ्जितं जातम् इति पुत्रस्य वचनेन मात्रा नितराम् अतुष्यत तस्याः नेत्रे सजले जाते पुत्रस्य दयागुणं ज्ञात्वा अतीव प्रसन्नतया तया सः गाढम् आलिङ्ग्यत.
हा समीचीनं महोदय. अस्तु इदानीं तत्र कथायाः तत्र अर्थः कः इति सर्वैः ज्ञातः वा?
आम् आम् वृक्षस्य दुःखं.
हा वृक्षस्य दुःखम् अपि तत्र स्वदुःखं स्वदुःखं तत्र लोग्रवृक्षस्य दुःखं कीदृशम् इति सः ज्ञातुं स्वस्य चर्मस्य तत्र चर्म चर्मणः तत्र चर्म इति चर्मण् इति चिन्तयामि कर्मणि वा इति मन्ये चर्म सत्यं वा चर्म इति नकारान्तपदं
चर्मन् चर्मन् अस्ति महोदय
चर्मन्नेव वा भगिनि अतः तत्र
चर्मन्नेव
हा तत्र कर्म कर्मणि कर्माणि इव इति मन्ये चर्म चर्मणि चर्माणि अतः तत्र प्रायशः चर्मणः तत्र स्वस्य चर्मणः तत्र कर्तनं हा कर्तनं कृतवान् सः कृत्वा तत्र दुःखं कीदृशम् इति तत्र अनुभूतवान्. अस्तु अतः तत्र इदानीं तत्र मूलविषयः कः इत्युक्ते तत्र लङ्लकारः. अतः प्रथमतया तत्र लङ्लकारस्य पुनस्मरणं कुर्मः. तत्र पठति अस्ति चेत् तत्र लङ्लकाररूपं किम् अस्ति?
अपठत्.
अपठत् हा अपि तत्र नवरूपाणि कानि? अपठत्
अपठत् अपठताम् अपठन् अपठः अपठतम् अपठत अपठम्
अपठम्
पठाव
अपठाम. समीचीनं महोदय. हा इति अतः तत्र लङ्लकारस्य नाम भूतकालार्थे. इदानीं तत्र किन्तु वयं जानीमः तत्र कर्मणि भावे प्रयोगे तत्र यद्यपि धातुः परस्मैपदी धातुः भवेत् किन्तु कर्मणि भावे प्रयोगे धातुः सर्वदा कीदृशः भवति? आत्मनेपदी धातुः इव भवति खलु. अतः इदानीं तत्र आत्मनेपदी धातूनां लङ्लकाररूपं कीदृशम् इति अपि ज्ञातव्यम् अस्माभिः. अतः तत्र वर्तते अथवा वर्धते इति चिन्तयामः. वर्धते इति पदस् वर्धन् वर्धते वर्धेते वर्धन्ते इति स्थाने तत्र लङ्लकाररूपाणि कानि शुभ भगिनि? अवर्धत
अवर्धन्त
हा अवर्धन्त इति. अतः तत्र अवर्ध तत्र अवर्धताः
अवर्धताः अवर्धेताम् अवर्धध्वम् अवर्धध्वं क्षम्यताम्
भगिनि तत्र 143 मध्ये अधोभागे अस्ति खलु तदेव केवलं तत्र
अवर्धता अवर्धेताम् अवर्धन्त अवर्धताः अवर्धेताम् अवर्धध्वम् अवर्धे अवर्धामहि
अवर्धामहि अवर्धामहि इति. समीचीनं भगिनि. हा तावदेव तत्र वर्धधातुः वर्धते स्थाने लङ्लकाररूपम् एतदस्ति. अतः तत्र आत्मनेपदी धातूनां लङ्लकाररूपस्य ज्ञानम् आवश्यकम्. इदानीं तत्र कर्मणि भावे प्रयोगः अस्ति इति कृत्वा तस्मात् प्राक् एकं सोपानमस्ति नाम यक् इति तस्य योजनम्. अतः तत्र पट् इति स्थाने पठति इति स्थाने पठ्यते. इदानीं तत्र
तदनन्तरम् अपठ्यत इति भवति.
हा अपठ्यत इति. अतः तत्र अपठ्यत इति स्वीकृत्य वदतु भगिनि इदानीं तत्र रूपं कथं भवति इति.
अपठ्यत अपठ्येताम् अपठ्यन्त अपठ्यथाः अपठ्येथाम् अपठ्यध्वम् अपठ्ये अपठ्यावहि अपठ्यामहि.
हा इति अस्ति तावदेव. हा समीचीनं. हा अस्तु इदानीं तत्र सूर्यकुमारी भगिनि इदानीं तत्र गच्छति इति तत्र गम्यते इति भवति. तत्र गम्यते इति स्थाने लङ्लकाररूपं किं भवति?
अगम्यत.
अगम्यत इति. इदानीं तत्र नवनूरूपाणि वदतु.
अगम्यत अगम्येताम् अगम्यन्त अगम्यताः अगम्येताम् अगम्यध्वम् अगम्ये अगम्यावहि अगम्यामहि
हा इति समीचीनम् अस्तु अग्रे तत्र गीताञ्जलिभगिनी इदानीं तत्र खादति तत्र खाद्यते
खाद्यते लङ् कर्मणि लङ् अस्ति अखाद्यत अखाद्येताम् अखाद्यन्त अखाद्यथाः अखाद्येथाम् अखाद्यध्वम् अखाद्ये अखाद्यावहि अखाद्यामहि
हा समीचीनम् अस्तु अग्रे तत्र नरेश महोदय तत्र इदानीं तत्र एतत् कुर्मः तत्र स्मरति तत्र
स्मरति
तत्र स्मर्यते भवति स्मर्यते इदानीं लकारे
अस्मर्यत अस्मर्येताम्
अस्मर्येताम्
अस्मर्यन्त अस्मर्यथाः अस्मर्येथाम् अस्मर्यध्वम् अस्मरे
अस्मर्ये अस्मर्ये
अस्मर्ये अस्मर्या वहि अस्मर्या महि
हा इति भवति महोदय समीचीनं हा अतः तत्र प्रथम सोपानम् अस्ति तत्र नूतनलकारः अस्ति चेत् प्रथमतया तत्र रूपं कथम् अस्ति इति अपि सोपानानि कानि इति नाम लट्लकाररूपं तदनन्तरं लङ्लकाररूपं तत्र धातु स्वीकृत्य यक् इति योजनं तदनन्तरं लट्लकाररूपस्य निर्माणं तदनन्तरं लङ्लकारस्य निर्माणम् अतः तत्र पट् इति पठति स्थाने पठ्यते तदनन्तरम् अपठ्यत इति अतः तत्र रूपाणि इदानीं तत्र स्थापितानि इति मन्ये अत्र केवलं तत्र अभ्यासं कुर्मः तत्र अग्रिमे पुटे तत्र रूपाणि सन्ति प्रथम अभ्यासः अस्ति तत्र अपि अवधेयमपि अस्ति तत्र तदपि एकवारं पश्यामः तत्र अतः तत्र शोभभगिनी तत्र रम्यते इति अस्ति तस्य रं धातोः रूपमपि दत्तमस्ति एकवारं पठित्वा अभ्यासम् आरम्भं करोतु भगिनि
रम् इति धातुः तत्र लङ् भावकर्मणि प्रयोगे अरम्यत अरम्येताम् अरम्यन्त अरम्यथाः अरम्येथाम् अरम्यध्वम् अरम्ये अरम्यावहि अरम्यामहि इति भवन्ति
इदानीं भगिनी तत्र प्रश्नः केवलं रं धातोः तत्र भावे अपि कर्मणि मास्तु केवलं साधारण लङ्लकाररूपाणि कानि रं धातोः
रं रमति इति अस्ति
रमते
क्षम्यतां रमते इति अस्ति चेत् रमते अरमत इति भवति
तत्र यकारः नास्ति केवलं
अरमत अरमेताम् अरमन्त
इति भवति तत्र यकारः अस्ति इति तद् यकारः इति ज्ञात्वा अस्ति इति ज्ञात्वा तत्र कर्मणि भावे इति अस्माकं ज्ञानं भवति खलु नो चेत् तत्र अरमत अस्ति चेत् अस्तु तत् केवलं तत्र कर्त्री अर्थे लङ्लकारः इति अस्ति अस्तु अग्रे भगिनि
अभ्यासः यथोदाहरणम् अत्र निर्दिष्टानां क्रियापदानां रूपाणि लिखत यथा विन्द्यते इति अस्ति चेत् अविन्द्यत इति उह्यते इति अस्ति उह्यते आ उ ओह्यते इति भवति महोदय ओह्यत
तत्र यकारः पूर्वमेव अस्ति इति कृत्वा तत्र प्रायशः तत्र ओह्यत इति
ओह्यत इति आयोगः उह्यते
पुनः वदतु क्षम्यतां भगिनी क्षम्यतां भगिनी पुनः वदतु उह्यते इति
उह्यते तत्र अकार अट्ट आगच्छति आयोगः भवति
इति अस्ति
तत्र ओ तत्र औ भवति वा महोदय
तत्र इदानीं तत्र
उह्यते इत्युक्ते वह् धातु महोदय
ओ
वह् धातु वा
न भगिनि न न न तत्र एषः धातु तत्र भिन्द्यते इति यथा अस्ति तत्र क्षम्यतां सत्यं मम दोषः
अस्ति तत्र किमस्ति उह्यति उह्यति अपि अस्ति उह्यते इति भावकर्मणे भवति वह् इति अपि तादृशमेव भवति किल महोदय
सत्यं भगिनि सत्यं तत्र तत्र सत्यं भगिनि तत्र भिन्द्यते इति यद् दत्तम् अतः तत्र इदानीं कार्यं किम् इति तत्र ज्ञातं किन्तु कार्यम् एव केवलम् एतद् अस्ति भगिनि तत्र यत् यत् क्रियापदं दत्तम् अस्ति तद् कर्मणि रूपमेव अस्ति यत् क्रियापदं दत्तं कर्मणि रूपमेव दत्तं किन्तु तत् लट्लकारे दत्तं कर्तृ क्रियापदं न दत्तं कर्मणि रूपमेव दत्तं लट्लकारे दत्तं केवलं लङ्लकाररूपम् अपेक्षितम् अतः तत्र यथा भवती उक्तवती तत्र उह्यते इति तत्र वह इति धातुः वहति इति तत्र कर्तृ अर्थे कर्मण्यर्थे कर्मणि तु रूपं तु उच्यते उच्यते इदानीं तत्र उह्यते इति तस्य
लकारः
औह्यत औह्यत
औह्यत
इति अस्ति
उद्यते तत्रापि उद्यते वद् धातुः वदति इत्यस्य उद्यते इति कर्मणि तत्र औद्यते इति भवति इति मन्ये तर्हि महोदय
औद्यत इति प्रायश इति चिन्तयामि चिन्तयामि उद्यते इति औद्यते इति इति एव अस्ति भगिनि
अग्रे करोमि वा
हा करोतु भगिनि
स्थीयते तत्र तु स्था इति धातुः तिष्ठति इति अस्ति लट्लकारे कर्मणि स्थीयते इति भवति तत्र अस्थीयता इति भवति वा महोदय
अस्थीयता इति चिन्तयामि अस्थीयता इति अस्ति इति मन्ये अस्तु तर्हि अस्तु तत्र एव स्थगयामः तर्हि
अस्तु
ततः अतः तत्र इदानीं तत्र रूपस्य निर्माणं कथं भवति इति अस्माभिः ज्ञातं तत्र लङ्लकारस्य तत्र सर्वदा कर्मणि प्रयोगः अस्ति चेत् साधारण सुलभमार्गः अस्ति तत्र कर्मणि लट्लकाररूपं करोतु तदनन्तरं परिवर्तयतु इति तद् कुर्मः चेत् सुलभः भवति अस्तु तर्हि इदानीं तत्र अग्रे अग्रिमे वर्गे सरामः तर्हि तत्र अस्तु सूर्यकुमारी भगिनी भवती एव तत्र अन्ते शान्तिमन्त्रं वदति एव भगिनी
महामहोदय ॐ पूर्णमिदं पूर्णमदः पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते शान्ति शान्ति शान्तिः धन्यवादः महोदय
धन्यवादः भगिनी सर्वेभ्यो नमः धन्यवादः